यस्य श्रीपदपद्मवासभवने या संस्थिता श्रीवधो तत्प्रीत्या विनतः सरोषनयनो यस्तन्नुत प्रच्युतिदुःखाब्धौ सुदशावतारकृतिवद्भात्युन्मुखे तन्नखे पायात् संस्तुतविक्रमेश गिरिशः कल्याणशक्तिं सदा।